इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झाः। पञ्चदेशानां यात्रायाः द्वितीये दिने ह्यः प्रधानमन्त्री नरेन्द्र मोदी नीदरलैण्ड्स देशस्य प्रधानमन्त्रिणा सह अनेकेषु कार्यक्रमेषु सहभागम् अकरोत्। अत्र सामुदायिक सम्पर्कः डच राजपरिवारेण सह मेलनं च अन्यतमे आस्ताम्। हेग नगरे भारतीय समुदायं सम्बोधयन् श्रीमोदी प्रवर्तमानं दशकम् आपद्दशकत्वेन वर्णितवान्, यद्धि बहुविधैः संकटैः ग्रस्तमस्ति। प्रधानमन्त्री अवदत् यत् भारत नीदरलैण्ड्स देशौ वैश्विक समाह्वानानि सम्मुखीकर्तुं विश्वस्तायाः पारदर्शिन्याः च भविष्यापूर्ति व्यवस्थायाः निर्माणार्थं सम्भूय कार्यरतौ स्तः। सः अवदत् यत् विश्वं सर्वादौ कोविड 19 महामारीं तदनन्तरं च युद्धं सम्मुखीकृतवत्। साम्प्रतम् एतत् ऊर्जा संकट समं विकट समाह्वानं सम्मुखीकरोति। सः सावहितम् अकरोत् यत् एतेषां समाह्वानानां द्रुतगत्या यदि निराकरणं न भवति चेत् वैश्विक विकासलाभः प्रबाधितः भविष्यति, जनसंख्यायाः विशालः भागः च निर्धनताग्रस्तः भविष्यति। आर्थिकस्थितिव्यवस्थायाः सुदृढीकरणाय वैश्विकान् प्रयासान् प्रकाशयन् प्रधानमन्त्री अवदत् यत् भारत नीदरलैण्ड्स देशो संयुक्तरूपेण सुदृढापूर्ति श्रृंखलायाः निर्माणाय कटिबद्धौ स्तः। ध्यानास्पदमस्ति यत् एषा यात्रा द्विपक्षीय सम्बद्धेभ्यः अधिका महत्वपूर्णा वर्तत। नीदरलैण्ड्स देशस्य यात्रायाः अनन्तरं प्रधानमन्त्री अद्य स्वयात्रायाः तृतीय चरणे स्वीडन देशस्य यात्रां करिष्यति। सः अद्य गोथेनबर्ग नगरं सम्प्राप्नोति। स्वीडन देशस्य एकदिवसीय यात्रा नवदिल्ली स्टॉकहोमयोः वर्धमान पारस्परिक सम्बन्धेषु ऐतिहासिकः पदक्रमः अस्ति। श्रीमोदी स्वीडन समकक्षेण उल्फ क्रिस्टर्सनेन सह द्विपक्षीय सम्बन्धपरकं सम्भाषणं करिष्यति। सीबीएसई इत्यनेन केन्द्रीय माध्यमिक शिक्षा परिषदा नवमकक्षायाः छात्रेभ्यः भाषात्रयस्य अध्ययनं जुलाई मासस्य प्रथमदिवसात् अनिवार्यं कृतम्। परिषदा विज्ञप्तौ उक्तं यत् 20-अधिक-2000-तमाब्दीयायाः राष्ट्रिय शिक्षानीतेः 23-अधिक-2000-तमाब्दीयस्य राष्ट्रिय विद्यालय शिक्षा पाठ्यक्रमस्य अनुसारि एतासु 33 भाषासु न्यूनातिन्यूनं भाषाद्वयं भारतीय मूलकं भवेत्। भारतीयर्थविभागेन अद्य अण्डमान निकोबार द्वीप समूहाय पश्चिम बंगाले हिमालयस्य अधोवर्तिक्षेत्रेभ्यः सिक्किमाय च अतिवृष्टिपरा नारंगवारणकी संचेतना प्रसारिता। केरलं माहे लक्षद्वीप दक्षिणाभ्यन्तरीण कर्णाटक तमिलनाडु पुदुच्चेरी कराईक्कलेषु उत्तरपूर्वीय क्षेत्रस्य कतिपय भागेषु च समाना एव स्थितिः भविष्यति इत्यपि विभागेन सूचितम्। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः एफएम गोल्ड प्रवाहिकातः अद्य मध्याह्ने 12:30 भविष्यति। भवन्तः सर्वे यथाकालं श्रोतुं प्रभवन्ति। अन्ते क्रीडावार्तासु, बैंकॉक नगरे थाईलैंड ओपन बैडमिंटन क्रीडा मालिकायाः पुरुष युगल वर्गीये निर्णायक द्वन्द्वे अद्य भारतस्य सात्विक साईराज रंकी रेड्डी चिराग शेट्टी च इंडोनेशिया देशस्य लियो रॉली कार्नांडो डेनियल मार्थिनाभ्याम स्पर्धिष्येते। इंडियन प्रीमियर लीग क्रिकेट स्पर्धा मालिकायां गतरात्रौ कोलकातायाः ईडन गार्डन्स क्रीडांगणे आयोजिते द्वन्द्वे कोलकाता नाइट राइडर्स दलेन गुजरात टाइटन्स दलं 39 धावनांकैः पराजितम्। आदोपणं विजित्य गुजरात टाइटन्स दलं क्षेत्ररक्षणं कर्तुं निर्णीतवत्। अद्यतने द्वन्द्वद्वये प्रथमं धर्मशालायां अपराह्णे 3:30 पंजाब किंग्स दलं रॉयल चैलेंजर्स बेंगलुरु दलेन स्पर्धिष्यति। ततः सायं 7:30 दिल्ल्यां दिल्ली कैपिटल्स दलं राजस्थान रॉयल्स दलं सम्मुखीकरिष्यति।